इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। इदानीं वार्ताः। विदेशमन्त्री डॉक्टर एस जयशंकरः प्रोक्तवान् यत् आधुनिक भारतस्य निर्माणं क्रमेण प्रचलति। देशे सर्वसमावेशक वृद्धेः विधि प्रशासनस्य च विचारः वर्धमानः अस्ति इति असौ अग्रे उक्तवान् यत् एते सिद्धान्ताः प्रशासनस्य नीतिषु कार्येषु च केन्द्रस्थाने सन्तीति। ह्यः स्विट्जरलैण्ड देशस्य राजधान्यां जिनेवा नगरे भारतीय समुदायं सम्बोधयन् सः एतद् उक्तवान्। डॉ जयशंकरः अवदत् यत् प्रशासनं महिलानां नेतृत्वे विकासं प्रवर्धयति, यस्योपरि गतवर्षे भारतस्य G20 अध्यक्षस्थाने अपि बलं प्रदत्तमासीत्। निर्वाचनस्य आचरणस्य विषये डॉ जयशंकरः देशस्य लोकतान्त्रिक प्रक्रियायाः प्रशंसाम् अपि अकरोत्। राष्ट्रियान्वेषणाभिकरणेन ह्यः भारतीयोच्चायोगस्योपरि आक्रमणमभिलक्ष्य पंजाब प्रान्तस्य नैकेषु स्थलेषु आकस्मिकान्वेषण कार्यं कृतम्। कनाडायां खालिस्तान समर्थकैः आक्षेपितान् आरोपान् अनुसारम् आयोगेन अन्वेषणकार्यम् एतत् कृतम्। अन्वेषणकार्याणि मुख्यतः मोगा, गुरदासपुर, अमृतसर, जालन्धर जनपदेषु विहितानि। अनेन अभिकरणेन गतवर्षं ओटावायाः भारतीय दूतावासात् बहिः खालिस्तानिभिः कृतविरोधं विरुध्य प्रकरणमिदं पञ्जीकृतमासीत्। उपराष्ट्रपतिः जगदीप धनखड़ः अद्यारभ्य महाराष्ट्रस्य द्विदिवसीय यात्रार्थं यास्यति। श्रीधनखड़ः श्वः दृश्य श्रव्य प्रणालिकया समग्रराज्ये 34,400 औद्योगिक प्रशिक्षण संस्थानेषु संविधान देवालयानां स्थापनायाः कार्यक्रमस्य उद्घाटनं करिष्यति। अयं समारोहः मुम्बय्याः एल्फिन्स्टन टेक्निकल महाविद्यालये आयोज्यते। प्रशासनेन अण्डमान निकोबार द्वीप समूहस्थस्य पोर्ट ब्लेयर इत्यस्य नामान्तरणं कृत्वा श्रीविजयपुरम् इति स्थापनस्य निर्णयो गृहीतोऽस्ति। एतस्य घोषणा केन्द्रीय गृहमन्त्रिणा अमितशाहेन सामाजिक प्रसारतन्त्रजालीय सन्देशे कृता। अद्य सम्पूर्णे देशे हिन्दीदिवसः परिपाल्यते। ध्यातव्यमस्ति यत् अद्यैव संविधानसभया देवनागरी लिप्यां लिखिता हिन्दीभाषा देशस्य आधिकारिकभाषात्वेन अंगीकृता। अद्यत्वे हिन्दीभाषा विश्वे व्यापकरूपेण भाषितेषु बृहत्तमासु भाषासु अन्यतमास्ति, अपि च 250 कोट्यधिकानां जनानां प्रथमा भाषा अपि विद्यते। अत्रावसरे केन्द्रीयः गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां राजभाषा हीरक जयन्ती समारोहस्य चतुर्थस्य च अखिल भारतीय राजभाषा सम्मेलनस्य औद्घाटनिकं सत्रं सम्बोधयिष्यति। स्वच्छता ही सेवा इति अभियानमिदं 24,000 सम्पूर्णे देशे अस्य मासस्य 17 दिनांकतः अक्टूबर मासस्य 2 दिनांकपर्यन्तं आचर्यते। अस्य वर्षस्य विषयः वर्तते स्वभाव स्वच्छता संस्कार स्वच्छता इति। अस्मिन् वर्षे स्वच्छ भारताभियानस्य 10वां वार्षिकोत्सवः आचर्यते। इत्यस्मात् कारणात् अयं कार्यक्रमः महत्वपूर्णं सोपानं निर्दिशति। पूर्वावलोकन कार्यक्रमे केन्द्रीयावासन नगरकार्यमन्त्री मनोहरलालः अघोषयत् यत् अस्मिन् वर्षे अभियानस्य भागरूपेण प्रशासनं 2,00,000 स्वच्छता लक्ष्यघटकान् परिवर्तयिष्यति इति। केन्द्रीयः जलशक्ति मन्त्री CR पाटिलः अवदत् यत् 14,000,000 आरभ्य प्रशासनेन 11,00,000 शौचालयाः निर्मिताः, येन सम्पूर्णे देशे 60,00,000 उपकृताः अभवन्। सर्वोच्च न्यायालयेन ह्यः दिल्ली राज्यस्य मुख्यमन्त्रिणे आम आदमी पार्टीति दलस्य राष्ट्रिय संयोजकाय अरविन्द केजरीवालाय केन्द्रीयान्वेषण विभागद्वारा अभिलिखितायां कथितपाद नीति अनियमिततायां पञ्जीकृते प्रतिभूतिः प्रदत्ता इति। वार्ताः।